एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक चन्द्रकान्त पौडेल आराष्ट्रम ह्यः अतिरिक्तेषु सहस्रे सप्तशते चतुर्दशे च जनेषु कोरोना विषाणोः संक्रमणं पुष्टीभूतं वर्तते। ह्यः चत्वारि सहस्राणि सप्तशतम् एकसप्ततिश्च जनाः कोरोना विषाणोः संक्रमणात् मुक्ताः इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। संक्रमणेन ह्यो नवजनाः मृताः। ह्यः आराष्ट्रम् पञ्चलक्षाणि अष्टाशीति सहस्राणि चतुश्शतम् चत्वारिंशत् जनाः कोरोना प्रतिरोधी टीकाकरणमाहितवन्तः इति मन्त्रालयेन ज्ञापितं वर्तते। काष्ठमण्डप महानगरपालिकया श्वः सोमवासरात् आगामिनः फाल्गुन मासस्य पञ्चमं दिवसं यावत् कोरोना प्रतिरोधिनः फाइजर नाम्नः टीकाकरणस्य द्वितीय मात्रायाः आधान कार्यक्रमः सञ्चालयिता। काष्ठमण्डप जनपद टीकाकरण समन्वय समितेः उपवेशेन निर्धारित दिनांकेषु शनिवासरेण विना सर्वेषु दिनेषु पूर्वाह्नस्य दशवादनात् अपराह्नस्य चतुर्वादनं यावत् टीकाकरणाधान कार्यक्रमं सञ्चालयितुं निर्णीतमिति काष्ठमण्डप महानगरपालिकायाः स्वास्थ्य विभाग प्रमुख बलराम त्रिपाठी अज्ञापयत्। सूचनायाः अनुसारेण टीकाकरणाधानाय लक्षित समूहेषु द्वादशतः सप्तदश वर्षाणां वयस्समूहस्य आहित प्रथम मात्रासु व्यतीतैक विंशति दिवसासु बालबालिकासु टीकाकरणाधान प्रमाणपत्रस्य आधारेण काष्ठमण्डप महानगरपालिकायाः द्वात्रिंशति एव वडाक्षेत्र कार्यालयेषु पार्श्ववर्ती टीकाकरण केन्द्रेषु च फाइजर टीकाकरणस्य द्वितीय मात्रा आधास्यते इति स्वास्थ्य विभाग प्रमुखः त्रिपाठी ज्ञापितवान्। टीकाकरणाधान कार्यक्रम सञ्चालने स्वास्थ्य मापदण्डं पूर्णतः पालयितुञ्च काष्ठमण्डप महानगरपालिकया अनुरूद्धमस्ति। अद्य विद्यायाः अधिष्ठात्र्यः सरस्वत्याः पूजाराधनपुरस्सरं श्रीपञ्चमी पर्व आयोज्यते। अस्मात् दिवसात् वसन्तर्तोः शुभारम्भो भवतीति विश्वासे पर्वेदं वसन्तपञ्चमी नाम्ना चाकार्यते। अद्यैव पठनयोग्याभ्यो बालबालिकाभ्यः अक्षरारम्भो विधीयते। एतदवसरे शिक्षक शिक्षार्थी चित्रकार साहित्यकार गायक नर्तकाभिनेतारः स्वस्व कला साधनानाम् उपकरणानि पुस्तक पुस्तिका लेखनी वाद्ययन्त्रादीनि पूजयन्ति। विद्यायां साफल्यम् अभिलषतां विद्यार्थी प्रवृत्ति भक्तजनानां विपुल सम्मर्दः अद्य प्रत्युषादेव विभिन्नेषु सरस्वती मन्दिरेषु दृश्यते। अद्य भक्तजने विशेषेण सेव्येषु सरस्वती मन्दिरेषु काष्ठमण्डप उपत्यकायाः स्वयम्भू लेले नील सरस्वती मन्दिराणि प्रधानानि सन्ति। अस्मिन् श्रीपञ्चमी पर्वणि अन्यं मुहूर्तम् अनन्विष्यैव विवाहः अन्यानि शुभकर्माणि च कर्तुं पार्यन्ते इति मान्यता अस्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेशः अस्यैव माघमासस्य सप्तविंशे दिवसे वस्ता। ललितपुरस्य सानेपावर्तिनि दल कार्यालये अस्यैव माघमासस्य सप्तविंशे दिवसे दिवा द्विवादने उपवेक्ष्यमाणे उपवेशे उपस्थिते केन्द्रीय कार्य सम्पादन समितेः पदाधिकारिणः सदस्याश्च अनुरुद्धाः सन्तीति दल कार्यालयस्य मुख्य सचिवेन कृष्ण प्रसाद पौडेलेन ह्यः प्रकाशितायां सूचनायाम् उल्लिखितं वर्तते। उपवेशे समाप्त कार्यकालानां भ्रातृ शुभेच्छुक संस्थानां अवशिष्टाधिवेश नाम जनपदानां विषयेषु विमृक्ष्यते इति सूचनायाम् उल्लिखितं वर्तते। देशस्य विभिन्नेषु स्थानेषु ह्यो दुरापन्नासु यान दुर्घटनासु षोडश जनाः मृताः इति प्रहरी प्रधान कार्यालयो ज्ञापयति। प्रहरिणः अनुसारेण प्युठान सुनसरी सिराह रूपन्देही स्याङ्जा धादिङ जनपदेषु दुरापन्नासु यान दुर्घटनासु एते जनाः अम्रियन्त। प्युठान जनपदस्य गौमुखी ग्रामपालिकायाः षष्ठवडा क्षेत्रस्थिते ओखरपाटा नामके स्थाने विवाहानन्तरं वधूम् ऊढ्वा प्रत्यागच्छत् जीपयानं मार्गात् पञ्चाशदधिक शतमीटरमिताधः पतितं सत् अष्टौ जनाः अम्रियन्त। प्रहरिणः अनुसारेण षड् जनाः घटनास्थले एव द्वौ च जनपद चिकित्सालये उपचारस्य क्रमे मृताः। सुनसरी जनपदस्य भोक्राः नरसिंह ग्रामपालिकायाः तृतीय वडाक्षेत्रवर्तिनि खुनिया सेतुस्थे मार्गे शुक्रवासरस्य रात्रौ बसट्रकयानयोः संघटितयोः शतोः जनत्रयम् अम्रियत। दुर्घटनायाम् आहतानां सप्तविंशतिर्जनानां सुनसरी विराटनगरयोः विभिन्नेषु चिकित्सालयेषु उपचारः जायमानो वर्तते। सिराहा जनपदस्य गोलबजार नगरपालिकायाः चतुर्थवडाक्षेत्रस्थिते मार्गे यानस्य प्रहारात् मिर्चैया नगरपालिकायाः षष्ठवडाक्षेत्रनिवासी एको जनो मृतो वर्तते। रूपन्देही जनपदस्य तिलोत्तमा नगरपालिकायाः नवमवडाक्षेत्रस्थिते मार्गे स्कूटरयानं स्वयं अनियन्त्रितं भूत्वा दुर्घटितं सत् स्कूटरयान चालकः तस्या एव नगरपालिकायाः पञ्चदशवडाक्षेत्रवर्तिनः कोटिहवा स्थानस्य एको युवकः मृतः। स्याङ्जा जनपदस्य बिरुवा ग्रामपालिकायाः तृतीयवडाक्षेत्रवर्तिनि धोवादिस्थिते आभ्यन्तरमार्गे जीपयानं दुर्घटितं सत् द्वौ जनौ घटनास्थले एव अम्रियतामिति प्रहरी ज्ञापयति। एवमेव धादिङ जनपदस्य धुनिवेशी नगरपालिकायाः प्रथमवडा क्षेत्रवर्तिनी बञ्चरे सिते मार्गे जेसीबी यानस्य स्वयं अनियन्त्रिततया मार्गात् आसन्न 44 मीटर मिताधो गर्ते निपतनात् दुरापन्नायां दुर्घटनायां अनभिज्ञातः एको जनः मृतोऽस्ति। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की दूरसंचार सेवायाः गुणस्तरस्य अभिवृद्धये बलं ददाति। नेपाल दूरसंचार संस्थानस्य 18 वार्षिकोत्सवस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री कार्की नेपाल टेलिकम संस्थानस्य फाइबर प्रणाल्याः प्रतिगृहं प्रापण सेवायाः विस्ताराय गुणस्तराभिवृद्धये च बलं प्रादात्। मन्त्री कार्की अवोचत् राष्ट्रिय गौरवस्य 4G आयोजना मध्यपर्वतीय लोकमार्गे अप्टिकल फाइबर तन्त्र्याः प्रसारण प्रणालीं प्रसार्य सूचना महामार्ग निर्माण कार्यं च समाप्य 5G सेवायाः परीक्षणस्य कार्यं यथाशीघ्रं प्रारभणीयम्। मन्त्री कार्की नेपाल टेलिकम संस्थानस्य सेवाम् आधुनिकीं प्रविधि मैत्रिणीं च सम्पादयितुमपि निर्दिशत्। गृहमन्त्रिणा बालकृष्ण खाण इत्यनेन मेलम्ची नद्यां निर्मितः बेली ब्रिज सेतुः ह्यः उद्घाटितो वर्तते। गत श्रावणमासे मेलम्ची नद्याः जलविप्लवेन चनोटे बजारवर्तिनः सेतोः प्रवाहणानन्तरं हेलम्बु ग्रामपालिकायाः द्वितीय सप्तम वडा क्षेत्रयोः योजकोऽसौ सेतुः नेपाली सेनया निर्मितो वर्तते। विपत् संकट न्यूनीकरण व्यवस्थापन राष्ट्रिय परिषदा गत कार्तिक मासस्य चतुर्थे दिवसे चनोटे बिर्खर्क स्थानयोः योजकस्य सेतोः निर्माणस्य दायित्वं नेपाली सेनायै प्रदत्तमासीत्। आसन्न नवसप्ताहानाम् अवधौ निर्मितोऽसौ सेतुः मार्ग विभागाय हस्तान्तरितो वर्तते। गृहमन्त्री बालकृष्ण खाण तराई क्षेत्रे वात्यायाः कारणेन मृतानां त्रयाणां परिवारेभ्यः उच्च पर्वतीय जनपदेषु हिमालयीय जनपदेषु च हिमपातेन प्रभावितेभ्यः परिवारेभ्यः सहायतां प्रदातुं निर्दिशति। मन्त्रालयस्य विपद्वन्द व्यवस्थापन महाशाखायाः प्रमुखः सहसचिवः प्रदीप कुमार कोइराला तराई क्षेत्रस्य द्वौ प्रमुख जनपदाधिकारिणौ हिमालयीय क्षेत्रस्य अष्टानां जनपदानां प्रमुख जनपदाधिकारिणश्च हिमपातेन वात्यायाः च कारणेन पीडितेभ्यो जनेभ्यः सहायतां प्रदातुं निर्दिष्टाः वर्तन्ते। नेकपा एमाले दलस्य वरिष्ठोपाध्यक्षः ईश्वर पोखरेलः स्थानीय स्तराणां निर्वाचनस्य शीघ्रातिशीघ्रं घोषणाम् अभियाचते। प्रेस चौतारी नेपालस्य 24 स्थापना दिवसस्य अवसरे ह्यः आयोजिते कार्यक्रमे वरिष्ठोपाध्यक्षः पोखरेलः राष्ट्रस्य आर्थिक विकासं समृद्धिं च प्रतिनयनार्थं निर्वाचनं विधातुं बलं प्रादात् इति समाचाराः।